कीर्तनवान् भवति यः एवं वेद योपामायतनं वेद आयतनवान् भवति
मनीषी।